रजदाद्रिशृङ्गनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानन्दसायकं क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वयम् पञ्चपादपपुष्पगन्धपदाम्बुजद्वयशोभितं बाललोचनजातपावकदग्धमन्मथविग्रहं भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वयम् चर्मकृतोत्तरीयमनोहरं पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहं देवसिन्धुतरङ्गशीकर सिद्धशुभ्रजडाधरं चन्द्रशेखरमाश्रये मम किं करिष्यति वयम् यक्षराजसघं भगाक्षहरं भुजङ्गविभूषणं शैलराजसुतापरिष्कृतचारुवामकलेबरं श्वेडनीलगलं परश्वधारिणं मृगधारिणं चन्द्रशेखरमाश्रये मम किं करिष्यति वयम् वृषवाहनं नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् अन्धकान्तकमाश्रितामरपादवं शमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यति वयम् भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनं भक्तिमुक्तिबलप्रदं सकलाघसङ्घनिबर्हणं चन्द्रशेखरमाश्रये मम किं करिष्यति वयम्
चन्द्रशेखर 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 चन्द्रशेखर
भक्तवल्सलमर्चितं निधिमक्षयं हरिदंबरं सर्वभूतपदिं परात्परमप्रमेयमनुत्तमं सोमवारिन भूभूताशन सोमवारिखिलाकृतिं चंद्रशेखरमाश्रये मम किं करिष्यति वैयम विश्वसृष्टि विधायिनं पुनरेव पालन तल्परं संहरन्दमभि प्रपञ्चमशेषलोकनिवासिनं क्रीडयन्दमहर्निशं गणनाथयूथसमन्वितं चन्द्रशेखरमाश्रये मम किं करिष्यति वैयम सूनुकृतस्तवं शिवसन्निधौ यत्र कुत्र जय पढे नहि तस्य मृत्युभयं भवे पूर्णमायुररोगिता अखिलार्थसंवदमादरं चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नदा